सर्वेषां स्वागतं ध्येयमन्त्रेण आरम्भं कुर्मः
ते भगिनी
अहं पठामि वा भगिनि
आम् आं भगिनि पठतु
शुक्लां भरधरं विष्णुं शशिवर्णं चतुर्भुजम् प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये सरस्वती नमस्तुभ्यं वरदे कामरूपिणी विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा गुरुर्ब्रह्मा गुरुर्विष्णु गुरुर्देवो महेश्वरा गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः ॐ सहना भवतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः गुरुभ्यो नमः हरिः ॐ
एतत् पठितुम् इच्छति वा न वा
अहं पठामि भगिनि
पठतु
रामो राजमणिः सदा विजयते रामं रमेशं भजे रामेणाभिहिता निशाचरसमूह रामाय तस्मै नमः रामान्नास्ति परायणं परतरं रामस्य दासोऽस्म्यहं रामे चित्तलयस्तदा भवतु मे भूराम माम् उद्वर
धन्यवादः भगिनि इदानीम् आरम्भं कुर्मः अस्तु अद्यतनसुभाषितम् एवम् अस्ति क्षमाशास्त्रं करेयस्य दुर्जनः किं करिष्यति अत्रिणे पतितो वह्निः स्वयमेव उपशाम्यते अत्र उप इति अस्ति सन्धि अस्ति उपशाम्यते पुनरेकवारं क्षमाशस्त्रं करेयस्य दुर्जनः किं करिष्यति अत्रिणे पतितो वह्नि स्वयमेवोपशाम्यते इत्युक्ते यस्य समीपे क्षमारूपं शस्त्रम् अस्ति क्षमा एकं शस्त्रम् इव आयुधम् इव आयुधम् इति क्षमा इति आयुधम् यस्य समीपे अस्ति तस्य अहितं दुर्जनः किं करिष्यति इत्युक्ते दुर्जनः किमपि दोषं कर्तुम् आगच्छति चेत् वयं अस्माकं समीपे क्षमा इति शस्त्रम् अस्ति चेत् सः किमपि न करिष्यति साधारणतया सुभाषितम् अस्ति चेत् उदाहरणमपि अपि ददाति उदाहरणं किम् अस्ति अत्र एवम् अहं चित्रेण वर्णयामि कोपेन द्रोहं कर्तुं कोऽपि आगच्छति परन्तु अस्माकं समीपे क्षमा इति अस्त्रम् अस्ति चेत् शस्त्रम् अस्ति चेत् क्षमा कथम् आगच्छति एतादृशं ध्यानम् अस्ति चेत् अस्माकं मनसि शान्तिभावः भवति शान्तिभावः भवति चेत् क्षमा शस्त्रं प्राप्नुमः तादृशम् अस्ति चेत् मित्रं भवति द्रोहं कर्तुं यः आगच्छति सः अस्माकं मित्रं भवति एवमेव अग्निः वह्निः इत्युक्ते अग्निः अग्निः दहितुम् आगच्छति दाहितुम् सो अत्र तृणः अस्ति शुष्कं तृणः ड्रै शुष्कं तृणः अस्ति चेत् दाहनं करोति परन्तु एतादृशम् अस्ति चेत् दाहनं कर्तुं न शक्नोति दहितुं न शक्नोति तृणरहित इत्युक्ते अत्र तृणं नास्ति तृणरहितस्थाने पतितं वह्निः अग्निः वह्नि स्फुलिङ्गं स्वयम् एव शाम्यते, इत्युक्ते स्वयमेव शाम्यते इत्युक्ते शान्त्यते, इट् गेट्स् आफ् इति शाम्यते, स्वयमेव शाम्यते. अतः अत्रापि दुर्जनः स्वयमेव शाम्यते, यथा यथा अग्निः स्वयमेव शाम्यते तथा दुर्जनः अपि स्वयमेव शाम्यते. कथं शाम्यते, कदा शाम्यते? अस्माकं समीपे क्षमा इति शस्त्रम् अस्ति चेत् स्वयमेव शाम्यते इति अर्थः अस्ति. अवगच्छति वा? प्रश्नः नास्ति चेत् अग्रे गच्छामः. अस्तु, अत्र नूतनगीतं वयं जानीमः एव. जयति जयति भारत माता बुधगीता, गायन्ति वा?
जयति जयति भारत माता बुधगीता
निखिल मातावन. अस्तु अम्ब, गायति वा? गायतु.
निखिल मातावन निरता नट जन सुहिता, निखिल मातावन निरता नट जन सुहिता, जयति सगल जीव समता साधु साधु विदिता, सगल जीव समता साधु साधु विदिता, अखिल लोक पतिता परमानंद समुदिता. जयति जयति
एक निमिष अम्ब वयं गायामः. अखिल लोक पतित परमानंद समुदित, अग्रे.
अखिल लोक पतित परमानंद समुदित, जयति जयति परमाता अगणित गुणशील अति दयाल बाला.
अम्ब भवती एकवारं गायतु, वयं सर्वे द्वितीयवारं गायामः.
अगणितगुणशीला
अगणितगुणशीला
अतिदयाल बाला प्रकटित शुभ जाला, प्रकटित शुभ जाला
प्रकटित शुभ जाला
अतीत प्राण लोला जयति भारत माता पंडित परिपीता,
पंडित
परिपूजिता पाप संग निवर्जिता, पंडित कलश्रेष्ठिता अखंड देश वेष्टिता, जयति जयति भारत माता बुध गीता, जयति जयति भारत माता जयति
जयति. हा बहु सम्यक् अम्ब, धन्यवादः.
बहु धन्यवादः.
बहु सुन्दरतया गायति खलु, सुन्दरम्.
आं भगिनि, आं भगिनि.
अस्तु
भगिनि, meaning of the song, though we broadly understand, many words are not clear. Would be able to explain it once?
अस्तु, अग्रिमवर्गे अहम् एकमेकं वदामि. परन्तु अत्र जयति जयति भारतमाता जानीमः, बुध बुध गीता, सो तत् बोधयितुं गीता, एत गीता अस्ति, गीता बोधयति. निखिल निखिल इत्युक्ते निखिल इत्युक्ते अस्माकं जगत् खलु, जगत् जगत् माता, भूमि माता. वन वन निरत निरत नत नत जन सुहित, सो अत्र सुहं ददाति तादृशम् अस्ति, निरत सुहित इति. अस्तु अग्रे एकमेकं पद्यम् एकमेकं वर्गे पश्यामः. अस्तु अत्र जाति स्वभावः इति कथा अस्ति, बहु सुलभकथा, अतः वयं पुनः वक्तुं प्रयत्नं कुर्मः. पठितुम् आरम्भं करोति वा? अस्तु, का आरम्भं करोति? सविता भगिनि.
आं भगिनि, अहं पठामि. कस्मिंश्चित् वने कश्चन सिंहः पल्या सह वसति स्म, पत्न्या सह वसति स्म. कालान्तरे तस्य पत्नी पुत्रद्वयं प्रसूतवती. सिंहः प्रतिदिनं मृगान् मारयित्वा मांसम् आनीय पत्नीपुत्रेभ्यः ददाति स्म. एकस्मिन् वने एक सिंहः सः पत्नी समेत वसति. कालान्तरे तस्य सिंहस्य पत्नी पुत्रद्वयं प्रसूतवती. सिंहः प्रतिदिनं खादनेन मृगान् मारयित्वा मांसम् आनीय तस्य पुत्रपुत्रेभ्यः ददाति स्म.
सम्यक्, बहु सम्यक्. अस्तु अग्रे श्रीनिवास, सर्वे अवगच्छन्ति खलु? अस्तु श्रीनिवास महोदय.
एकदा सिंहः मृगान् वेषणार्थं वने अटति स्म. तत्र सः एकं शृगालशिशुं दृष्टवान्. करुणया तं शिशुम् आनीय सः पत्न्या हस्ते दत्तवान्. सा अपि तं शिशुं मारयितुं न इष्टवती, अतः तं वात्सल्येन स्वपुत्रम् इव पालितवती. स्वपुत्राभ्यां यथा आहारादिकं ददाति तथा शृगालशिशवे अपि ददाति स्म सा. अतः ते त्रय अपि परस्परं भेदं न जानन्ति स्म. एवमेव ते
प्रवृद्धाः. अस्तु महोदय.
एकं समये सिंहः मृगान्
सो अत्र मृग अन्वेषणार्थम् इति अस्ति, मृगाणाम् अन्वेषणार्थम्. अत्रापि समस्तपदं मृग खादनार्थं मृगान् अन्वेषणं करोति, मृगार्थम् अन्वेषणं करोति. मृगाणाम् अन्वेषणार्थं वने अटति स्म. अस्तु
अन्वेषणार्थम् इत्युक्ते हण्टिङ्ग्, रैट्?
हण्टिङ्ग् टु सर्च् इति, सर्च् अन्वेषणं करोति.
ओके एकम् एकं दिने सिंहः मृगान् अन्वेषणार्थं वने अटति. तत्समये एकं शृगालशिशुं दृष्टवान्. शिशुं दृष्ट्वा सिंहस्य हृदये कारुण्यम् उत्पत्तयति. सिंहः तत् शिशुं मारयित्वा न इष्टति, न इष्टति. तत् शिशुं वट् इस् वर्ड् फार् ब्राट्
आनयति,
तत् शिशुम् आनयित्वा पत्न्या दत्तवान्. सिंहस्य पत्नी अपि लैक् हर् किड्स् स्वयं हर् ओन् किड्स्
स्वस्य शिशु इव
शिशु इव पालयति पालयति. त्रय सिंहस्य पुत्र शृगालस्य शिशु शिशु एवमेव प्रदृद्धाः.
अस्तु अस्तु, सहोदराः इव प्रवृद्धाः, अस्तु वर्धिताः. अस्तु, अवगच्छन्ति खलु सर्वे? अस्तु अस्तु, अग्रे अग्रे का वदति? लता भगिनी.
कदाचित् ते त्रयः अपि वने अटन्ति स्म. तत्र एकः गजः आगतः. गजं दृष्ट्वा सिंहपुत्रौ आक्रमणं कर्तुं सिद्धौ. तदा शृगालपुत्रः, भोः एषः गजः अस्माकं कुलस्य शत्रुः, अतः तस्य पुरतः न गन्तव्यम् इति उक्त्वा ततः गृहं प्रति पलायनं कृतवान्. तं दृष्ट्वा निरुत्साहेन सिंहपुत्रौ अपि गृहम् आगतवन्तौ. अनन्तरं तौ भ्राता गजं दृष्ट्वा भीत्या पलायनं कृतवान् इति पितरम् उक्तवन्तौ. कदाचित् द्वे सिंहपुत्रौ शृगालः च वने अटन्ति स्म. तत्र एकः गजः दृष्टवन्तः. गजस्य आक्रमणं कर्तुं सिंहपुत्रौ इच्छन्तौ. तदा शृगालपुत्रः वदति, गजः अस्माकं कुलस्य शत्रुः, अतः न युद्धं करणीयम् इति वदति. उक्त्वा इति उक्त्वा गृहं प्रति पलायनं कृतवान्. तं दृष्ट्वा सिंहपुत्रौ अपि निरुत्साहेन गृहम् आगतवन्तौ. अनन्तरं पितरम् उक्तवन्तौ, शृगालपुत्रः गजं दृष्ट्वा भीत्या पलायनं कृतवान् इति पितरम् उक्तवन्तः.
अस्तु भगिनि, सर्वे अवगच्छन्ति वा किम् अभवत् इति? अस्तु, अत्र किमपि वक्तुम् इच्छामि. अत्र आगतः एतादृशं भवति, एतादृशम् अस्ति चेत् वयं जानीमः तव तु प्रत्ययः खलु, आगतवन्तः, आगतवान्, गतवान् इति. सो अत्र वान् त्यजामः चेत् क प्रत्ययः भवति.
पलायनं न,
पलायनं ओडिपेट, ओडिपेट लैक् ततः धावितवन्तः. तत् स्थानमस्ति, तत् स्थानात् तस्मात् स्थानात् धावितवन्तः इति. सो अत्र आगतः इति क्त प्रत्यय. साधारणतया क्त प्रत्यय कर्मणि प्रयोगे एव उपयोगं कर्तुं शक्नुमः. कर्मणि प्रयोगः इत्युक्ते पेसिव् वाय्स् इत्युक्ते सः पुस्तकं दृष्टवान्, तेन पुस्तकं दृष्टम् इति भवति, तादृशं भवति. परन्तु गति अर्थे इत्युक्ते गम् धातु अस्ति चेत् कर्तरि प्रयोगे अपि वक्तुं शक्नुमः. सो अतः एकः गजः आगतः इति अत्र अस्ति. साधारणतया तादृशं न भवति. अस्तु, अन्यत् एकम् अस्ति गन्तव्यं, पठितव्यम् एतादृशम् अस्ति चेत् निश्चयेन कर्मणि प्रयोगे एव, पेसिव् वाय्स् एव. तस्य पुरतः, अतः तस्य पुरतः न गन्तव्यम्. सो अत्र अस्माभिः, वि शुड् नाट् गो, अस्माभिः न गन्तव्यं, तादृशं भवति. अस्तु, अन्य किम् अस्ति? आगतवन्तौ, कृतवन्तौ, एतादृशं तवतु, तवतु प्रत्यय. निरुत्साहेन, उत्साहेन, निरुत्साहेन, विरुद्धार्थकं भवति. अस्तु, अग्रे का वदति? अम्बा पठितुमिच्छति वा?
भगिनि, एकः प्रश्नः.
स्वागतं भगिनि, सन्ध्या भगिनि, वदतु.
भगिनि, इदानीं भगिनी वदति इच्छन्तौ इति, इच्छन्तौ वा इच्छन्तः वा भगिनि? इच्छति, इच्छतः वा?
अहं तादृशं करेक्षन् न कृतवती, परन्तु द्वौ अस्ति चेत् इच्छन्तौ, द्वौ भूतकालम् अस्ति चेत् इष्टवन्तौ इति भवति.
धन्यवादः.
अस्तु अम्ब.
सिंह तत् श्रुत्वा कुपितः, सः भवद्भयं सिंहकुलस्य एव अपमाननं कृतम् इति पुत्रौ निन्दितवान्. सिंहि, शृङ्गारपुत्रम् एकान्ते उक्तवती, भोः पुत्र, पुनः कदापि भवान् भवतः भ्रात्रोः उत्साहभङ्गं मा करोतु इति.
अस्तु 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 अम्ब, किम् अवगच्छति वदतु.
सिंह भ्राता गजं दृष्ट्वा भीत्या पलायनं कृतवान्, पितरं मुक्तवन्तौ. तत् श्रुतवान् सिंह कुपितवन्तः, सः भवद्भयं सिंहकुलस्य एव अपमानं कृतम् इति पुत्रो निन्दितवान्. भवन्तः सिंहकुलस्य एव अपमानं कुर्वन्ति इति पुत्रौ निन्दितवान्.
अस्तु,
सिंहि, शृङ्गालपुत्रम् एकान्तौ उक्तवती, सिंहस्य पत्नी शृङ्गालपुत्रम् एकान्ते उक्तवती, शृङ्गालपुत्रस्य पुत्रस्य एकान्तसमये उक्तवती, भो पुत्र, पुनः कदापि भवान् भवतः भ्रात्रो उत्साहभङ्गं मा करोतु. भो भवती भवतः सहोदरस्य उत्साह भङ्गं मा करोतु इति उक्तवान्.
उक्तवती, सा उक्तवती,
उक्तवती.
धन्यवादः, धन्यवादः अम्ब, धन्यवादः. सो अत्र अवगच्छन्ति खलु, सो सिंहः तत् श्रुत्वा कोपः आगतं कोपः तत् भवद्भ्याम् अत्र अत्रापि कर्मणि प्रयोग कर्मणि प्रयोगः सर्वदा भवति कथायाम् अतः एव अहं वदामि भवद्भ्याम् इत्युक्ते द्विवचनं भवान् भवन्तौ भवन्तौ सिंहकुलस्य एव अपमानं कृतवन्तौ इति कर्तरिप्रयोगे भवति कर्मणि प्रयोगे भवद्भ्यां सिंहकुलस्य एव अपमानं कृतम् इति कृतम् आगतम् आगतः आगता एतादृशं तप्रत्ययः भवति तप्रत्ययः साधारणतया कर्मणि प्रयोगे एव भवति तादृशम् अत्र अस्ति तादृशम् अत्र अस्ति इति पुत्रौ निन्दितवान् पुत्रः पुत्रौ पुत्राः द्विवचनम् अत्र सिंहि सिंहः सिंहि शृगालपुत्रम् एकान्ते एकान्ते इत्युक्ते सः एव तत्र अस्ति अन्य कोऽपि न अस्ति एकाकी एकान्ते एकान्ते उक्तवती भोः पुत्र पुनः कदापि भवतः भ्रात्रोः उत्साहभङ्गम् अत्र निरुत्साहेन उत्साहेन तौ सिंहपुत्रौ आक्रमणं कर्तुं सिद्धौ आसीत् अत्र तस्मिन् समये अनन्तरं शृगालपुत्रः मास्तु मास्तु इति पलायनं तादृशम् अग्रे मा करोतु उत्साहभङ्गं भङ्गम् इत्युक्ते ब्रेक् भङ्गम् उत्साहभङ्गं मा करोतु इति उक्तवान् सो अत्र अन्य किमपि नास्ति इति चिन्तयामि अस्तु अग्रे जयश्री भगिनी
आं भगिनि तदा कुपितः शृगालपुत्रः उक्तवान् अम्ब किम् अहं शौर्येण रूपेण वा ताभ्यां हीनः किमर्थं तौ माम् उपहसतः इति सिंहि मनसि एव हसित्वा तम् उक्तवती
एतत् पठतु एतत् वदतु भगिनि किम् अवगच्छति इति
कालपुत्रः सिंहि वाक्यं
श्रुतवान् वा
श्रुतवान् उक्तवान् अम्बा माता अहं शौर्येण रूपेण हीनः इति उक्तवान् किं तौ किम् उपहसतः इति उक्तवान् सिंहि तस्य माता मनसि एव हसित्वा उक्तवती
सम्यक् भगिनि अस्तु सो अत्र शौर्यम् इत्युक्ते शूरत्वं वेलरस् धैर्यम् अथवा मम रूपं ताभ्यां हीनः हीनः इत्युक्ते ते ऐ मीन् तौ सम्यक् सन्ति ऐ मीन् स्तः अहं न इति अस्ति वा
इन्फीरियर्
हीनः न्यून वा अहं न्यूनः अस्ति वा मम शौर्यं न्यूनः अस्ति वा मम रूपं न्यूनः अस्ति वा इति तौ उक्तवन्तौ वा उपहसतः हसत् उपहसतः इत्युक्ते मेकिङ्ग् फन् उपहसतः वा तौ इत्युक्ते सिंहपुत्रौ मम ऐ मीन् माम् उपहसतः वा किमपि उक्तवन्तौ वा इति परन्तु सिंहि तथा नास्ति इति हसित्वा अग्रे वदति किं वदति अस्तु
भगिनी उपहसतः
प्लाण्ट् रूपम् अस्ति वा अहं सम्यक् न जानामि उपहसतः रूपं किं
रूपं वा हसितवन्तः हसतः एतादृशं भवति त त प्रत्यय इव
सर्वदा कर्मणि प्रयोगे अस्ति वा
साधारणतया सर्वदा कर्मणि प्रयोगे परन्तु सर्वदा न अहम् अग्रे वदामि भगिनि त प्रत्ययः नास्ति इति मन्ये हसितः एव त त प्रत्यय माम् उपहसतः तादृशमेव त प्रत्यय एव इति चिन्तयामि अस्तु सो अत्र एकं पद्यं वदति अन्य कोऽपि वा पठितुम् इच्छति वा मङ्गल् भगिनी ओके ओके
शूरोऽसि कृतविद्योऽसि दर्शनीयोऽसि पुत्रक यस्मिन् कुले त्वमुत्पन्नो गजस्तत्र न हन्यते If you're born in a family where you see people of valor, you learn from them. Instead, if you're born in a family who cannot face, animals who cannot fight with an elephant, there you will be, hanyate is?
Marayate. Marayate. Hanyate.
Yeah, you will be incapable of fighting an elephant.
Shuraha asi. Asi means tvam. Tvam shuraha asi. Krita vidya asi. Ittikte buddhihi asi. Buddhiman asi. Buddhihi asi. Buddhiman asi. Krita vidya ittikte you have studied iti. So atra asi asi yati asti ataha tvam. Tvam shuraha asi eva krita vidya asi. Ittikte tvam buddhiman asi darshaniyaha asi. Ittikte sundaram eva, sundaraha eva tvam. पुत्रक इत्युक्ते मम प्रियपुत्रक यस्मिन् कुले त्वम् उत्पन्न यस्मिन् कुले त्वं जननं कृतवान् तस्मिन् कुले गजं न मारयति अतः कुलस्य स्वभावः इति एकः अस्ति अतः एव त्वं मारयितुं न शक्नोसि इति अम्ब वदति
Bhagini, darshaniyosi means you learn by example given by your elders.
No,
is that correct?
No, atra darshaniyaha means you are tada nasti. Darshaniyaha means you should be looked at, like means you are good to be looked at, arhati iti. So you look good iti.
भगिनि अत्र अत्र कृतविद्यो असि सो कृतविद्यः असि
कृतविद्यः अस्ति भवान् विद्यां जानाति इति लैक् यु नो यु आर् इण्टेलिजेण्ट् यु आर् स्मार्ट् इति सो पीपल् हू हाव् लर्न् संथिङ्ग् दट् इस् दे हाव् डन् इट् कृतविद्यः इति So that is one type of samasa where they say matu pratyaya. So this is a type of pratyaya where they say those who have done something krita vidya. They have learnt the vidya, so they are smart, they are educated. Krita vidya. Saha krita vidya iti. So supposing ekaha pustakam patitavan. Saha pustaka patitaha. Like that.
practical knowledge?
Yeah, he has the knowledge. He has the knowledge. He is smart. Buddhiman iti. So agre ka vadati Vishnu Mahodaya? So atra padyam asti kalu padyasya saramshah asti adah.
Bhavan shurah asti bhavata vidya vyasah api krutah भवान् सुन्दरः अपि अस्ति तथापि भवान् वस्तुतः शृगालपुत्रः अहं करुणया भवन्तं मम पुत्रमिव पालितवती परन्तु भवतः शृगालकुले जाताः गजं मारयितुं शक्ताः न भवन्ति भवान् शृगालपुत्रः इति मम पुत्रो यदि जानीतः तर्हि भवन्तं मारयिष्यतः एव अतः ततः पूर्वमेव भवान् इतः गत्वा स्वजातीयै शृगालै सह वासं करोतु इति सिंहस्य पत्नी माता उक्तवान् शृगालपुत्र भवान् शूरः विद्याभ्यास अपि कृतः सुन्दरः अपि वस्तुतः त्वं शृगालपुत्र न सिंहपुत्र अहं करुणया भवन्तं पालितवती परन्तु भवतः शृगालकुले जन्म भवति त्वया कुले गजमारयितुं न शक्नुवन्त भवान् शृगालपुत्रः इति यदि सिंहपुत्र जानन्ति तर्हि ते द्वयं त्वं मारयिष्यतः अतः भवान् गच्छतु स्वकुले सहवासं कुर्म सम्यक्
हा सम्यक् महोदय किञ्चित् अस्तु सम्यक् एव अवगच्छन्ति खलु सर्वे स्वागतं भगिनि उषा भगिनी
करुणया तृतीया विभक्ति
वा तृतीया कथं पालितवती करुणया कथम् इति प्रश्नस्य उत्तरं तृतीया विभक्तौ भवति करुणा आम् करुणा करुणय आकारान्त स्त्रीलिङ्गशब्द
धन्यवादः
अस्तु
भगिनी सुर अस्ति कृतविद्योऽसि तत् सुभाषितम् अस्ति वा
सुभाषितं न अत्र अस्ति खलु शूरोऽसि कृतविद्योऽसि तस्य पद्यस्य अर्थम् एव विद्याभ्यासः अपि कृतः स अतः कृतविद्यः इति समस्तपदं भवति कृतविद्यः सः यः विद्याभ्यासं कृतवान् सः कृतविद्यः इति सो अत्रापि जानीतः जानी पुत्रौ यदि जानीतः सो अत्र जानन्ति बहुवचनं जानन्ति जानीतः द्विवचनम् जानाति जानीतः जानन्ति इति. अस्तु अग्रे गच्छामः खलु. तत् श्रुत्वा शृगालपुत्रः लज्जया ततः गतवान्. बहु उत्तमा सिंही खलु. अस्तु अस्तु अस्तु. एकवारं षष्टि विभक्ति
अस्ति खलु.
आम् 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 आम्
Nice way of showing this place.
Yeah. Parantu mata mata eva na pita api kalo simhaha shrutva kupitaha asit parantu saha eva pratamam aniya dattava simhaha aniya पत्न्याः हस्ते दत्तवान्. सः अपि सम्यक् एव, परन्तु अत्र कोपः जातः, सिंहस्य कोपः जातः. सिंही अस्तु तादृशम् इतोपि मा भवतु इति सम्यक् उपायं कृतवती सा.
सिंहिका अतिविवेकं भवति.
आम् आम् सिंहि सम्यक् खलु. बहु बहु सम्यक्तया कृतवती सा. अस्तु षष्टिविभक्तिरूपम् एकवारं पश्यामः. पुल्लिङ्गे कथं भवति? अकारान्तपुल्लिङ्ग. वयं जानीमः रामस्य रामयोः रामाणाम्. अस्तु एकमेकं पठामः वा? चम्पा भगिनी पठितुम् इच्छति वा?
आम् आम् आं भगिनि. रामस्य रामयोः रामाणाम्
नपुंसकलिङ्गमपि
ज्ञानस्य ज्ञानयोः ज्ञानानां
ज्ञानानां. सम्यक् भगिनि. उर्मिला भगिनी स्त्रीलिङ्गम्
रमाशब्दस्य रामायाः रमयोः रमाणां.
रमायाः रमायाः रमयोः रमाणाम्. उत्तमं भगिनि. अस्तु उर्मिला भगिनि इकारान्तपदम्
इकारान्त हरेः हरियोः हरीणाम्.
सम्यक् हरेः हरियोः हरीणाम्. स्त्रीलिङ्गे कथं भवति? उमाकृष्णन् भगिनी
मत्याः मतेः मत्योः मतीनाम्.
मत्याः मतेः मत्योः मतीनां. मतेः पुल्लिङ्ग इव भवति, मत्याः इति स्त्रीलिङ्ग अपि भवति. द्वौ अपि सम्यक् एव, द्वौ अपि सम्यक्. अस्तु इला बेन् इति नूतना आगच्छति.
नमो नमः.
स्वागतं भगिनि. उकारान्तपदं पठतु भगिनि. नो न इकारान्तपति शब्दः.
पत्युः पत्योः पतीनां.
पत्युः पति पति शब्दे एव एतादृशं भवति. पत्युः पतेः न भवति, पत्युः पत्योः पतीनां. सम्यक् भगिनि. विजय् महोदय पठितुम् इच्छति वा? गौरी शब्दः.
आम् गौरी शब्द स्त्रीलिङ्ग गौर्योः गौर्योः गरीणां.
पुनः पठतु महोदय.
गौर्याः गौर्याः गौर्योः गौरीणां.
गौरीणां गौर्याः गौर्योः गौरीणाम्. अत्र धन्यवादः. इकारान्त अकारान् इकारान्त ईकारान्त आकारान्त अस्ति चेत् याः इति भवति. रमायाः मत्याः गौर्याः अनन्तरं योः 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 सर्वत्र नाम नाम नाम. रेफा ऋकार शकार अस्ति चेत् ण, नो चेत् न एव. रमाणां मतीनां ह्रस्वम् अस्ति चेत् अपि दीर्घं भवति. मतीनां गौरी दीर्घमेव. मूलरूपं लिखित्वा णाम् रमाणां हरिणां हरीणां पतीनां दीर्घं भवति. अस्तु अग्रे उकारान्तपदं वीना बेन् भगिनी
नमस्ते
नमस्ते भगिनि स्वागतं
गुरोः गुर्वोः गुरूणां
गुरूणां सो अत्र उकार अस्ति चेत् ओकारः भवति यथा इकार अस्ति चेत् ए भवति हरे भवति उकार अस्ति चेत् ओकारः भवति अपि च य स्थाने व भवति इकार अस्ति चेत् य उकार अस्ति चेत् वकारः भवति परन्तु बहुवचने ऊणाम् ईनाम् एतादृशं भवति गुरोः गुर्वोः गुरूणाम् अस्तु उषा भगिनी
आं भगिनि
आम्
नेक्स्ट् वन्
धेनु धेनुशब्दः
धेनु स्त्रीलिङ्गं धेनु इत्युक्ते धेन्वाः धेनोः धेन्वोः धेनूनां
धेनूनां सम्यक् उकार अस्ति अतः ओकारः भवति धेनोः गुरोः इव वद्वाः इव धेन्वाः पुल्लिङ्गवत् गुरोः भव धेनोः भवति स्त्रीलिङ्गवत् धेन्वाः भवति विकल्पद्वयम् अस्ति कुत्र विकल्पद्वयं ह्रस्व इकार ह्रस्व उकार एतादृशम् अस्ति चेत् भवति उकार अस्ति अतः वोः धेन्वोः धेनूनां धेन्वाः धेन्वोः धेनूनाम् अथवा धेनोः धेन्वोः धेनूनाम् इति भवति शोभना भगिनी स्वागतं भगिनि
नमस्कारः
नमस्कारः भगिनि
किं वदामि
वधू शब्दः वद्वाः
ओके वधू शब्दः वद्वाः वध्वोः वधूनां
वधूनां सो अत्र यथा गौरी शब्दः गौर्याः गौर्योः इति भवति अत्र य स्थाने वद्वाः वध्वोः वधूनाम् इति भवति इति मनसि स्थापयतु अस्तु अग्रे सागरि भगिनी ऋकारान्तशब्दः पुल्लिङ्गस्त्रीलिङ्ग द्वौ अपि पठतु धन्यवादः
पतुः पितुः पित्रोः पितॄणां मातुः मात्रोः मातॄणां
सो अत्र भेदः अपि नास्ति किमपि नास्ति पितुः पित्रोः पितॄणां मातुः मात्रोः मातॄणां नपुंसकलिङ्गे अपि तादृशमेव धातुः धात्रोः धातॄणां इति भवति अस्तु सन्ध्या भगिनी नपुंसकलिङ्गं पठतु कृपया भगिनि वारि शब्दः
वारि वारिणः
वारिणोः वारिणा मधु
मधु मधुनः मधुनोः मधूनां
मधूनां सो अत्र पुल्लिङ्गवत् स्त्रीलिङ्गवत् न भवति नपुंसकलिङ्गपदमस्ति चेत् नकारः आगच्छति सो अत्र वारिणः वारिणः वारिणोः वारीणां परन्तु वारीणां सर्वत्र नाम 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 एव नाम 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 सर्वत्र तादृशं भवति मधुनः मधुनोः मधूनाम् एतत् दृष्ट्वा वयं झटिति अवगन्तुं शक्नुमः नपुंसकलिङ्गपदम् इति परन्तु धेनोः इति अस्ति चेत् पुल्लिङ्गं वा स्त्रीलिङ्गं वा इति अवगन्तुं न शक्नुमः झटिति अवगन्तुं न शक्नुमः अस्तु तादृशम् अस्ति अस्तु अग्रे वयं सर्वनामपदं पश्यामः श्रीनिवासमहोदय पठति वा
आं भगिनि सर्वनामपदं तत् शब्दः तस्य तयोः तेषां
तस्य तयोः तेषां किं शब्दः अपि पठतु
तस्य तयोः तेषां प्रश्नवाक्यः कस्य तयोः तेषां
सम्यक् तस्य वयं तस्य तयोः तेषाम् इति जानीमः चेत् कस्य कयोः केशं सुलभः भवति, तादृशं भवति. अस्तु, सविता भगिनी, भवत् शब्दः.
भवत् भवतः भवतोः भवताम्.
अस्तु, भवतः भवतोः भवताम्. अस्तु, अस्मद् युष्मदपि पठति वा अग्रे गच्छति.
अस्मत् शब्दे मम मे, मम आवयोः अस्माकं, मे नौ नः.
सम्यक्, मम आवयोः अस्माकं, मे नौ नः. सम्यक्. युष्मत् शब्दः
तव युवयोः युष्माकं, ते वां वः.
ते वां वः, ते वां वः अधिकतया न उपयोगं कुर्मः, परन्तु जानीमः चेत् सम्यक् भवति. अस्तु, लता भगिनी, स्त्रीलिङ्गं भगिनी.
तत् शब्द तस्याः, तयोः, तासाम्.
तासाम् इति भवति, अत्र एव तासाम्. अस्तु, अग्रे.
कस्याः, कयोः, कासाम्.
कस्याः, कयोः, कासां, तस्याः इव कस्याः अपि भवति. अस्तु, अम्ब पठति वा भवती शब्दः. अन्म्यूट् करोतु कृपया.
भवत्याः, भवत्योः, भवतीनां.
हा, भवत्याः, भवत्योः, भवतीनां. गौरी शब्दः एव, गौर्याः, गौर्योः, गौरीणां, भवत्याः, भवत्योः, भवतीनां. अस्तु,
मम आवयोः अस्माकं.
सम्यक्, मम आवयोः
नौ, मे नौ नः.
सम्यक्. तव अग्रे अपि पठ.
तव युवयोः युष्माकम्.
अस्तु,
ते मां वः.
ते वां वः. सो अत्र त्रिषु लिङ्गेषु समानरूपं खलु. मम आवयोः अस्माकं पुल्लिङ्गे, स्त्रीलिङ्गे, नपुंसकलिङ्गे अपि समानमेव भवति. अस्तु, सो अत्र अभ्यासं कृतवन्तः इति अहं चिन्तयामि. गृहे एकमेकं स्वीकृत्य कुर्मः वा. जयश्री भगिनी, कविशब्दः इकारान्तपुल्लिङ्गपदं कथं कथं भवति? कवि, कविः, कवेः, सम्यक्, कवेः, कव्योः, कवीनां. केवलम् उदाहरणार्थम् अग्रे अग्रे गच्छामः. विष्णुमहोदय, साधु शब्द उकारान्त पुल्लिङ्गपदं.
साधु, साधवोः, साधूनां.
साधोः, साध्वोः, साधूनां. सम्यक्. चम्पा भगिनी, होता.
होतृः.
होतुः, सम्यक्. होतुः,
होतुः, होतृः.
सम्यक्, सम्यक्. होतुः, होत्रोः, होतॄणाम्. अत्र ऋकारान्तपदानि तथा एव भवति, समानरूपं भवति. सम्यक्, सम्यक् भगिनि, धन्यवादः. अस्तु, अग्रे उर्मिला भगिनि, तिथिः.
तिथिः, तिथ्याः,
तिथ्याः,
तिथ्योः,
तिथ्योः, सम्यक्, तिथ्याः, तिथ्योः, तिथीनाम्. अत्र एकवचने अन्यरूपमपि भवति खलु.
तिथेः,
सम्यक्, तिथेः, तिथ्याः. सम्यक्, सम्यक्. अस्तु, लेखनी लेखनी वयं जानीमः. रज्जुः, उमाकृष्णन् भगिनि.
आं भगिनि, रज्जुः, रज्वोः, रौज्य, रज्वोः, 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 रज्जूनाम्.
सम्यक्, रज्जोः, रज्वोः, रज्जूनाम्. रज्जोः, रज्वाः अपि भवति. रज्जोः, रज्जोः,
रज्जु,
रज्जोः रज्वाः रज्वोः रज्जूनां सम्यक् रज्जूनाम् अस्तु. इलाबेन् भगिनि चमूः
चमूः
अत्र वद्वाः इव
चम्वाः चम्वोः चमूनां
सम्यक् चम्वाः चम्वोः चमूनाम् अस्तु. विजय महोदय दुहिता
द्रोहिता अहं न जानामि.
सो अत्र अत्र पश्यतु मातुः इव
दुहितुः दुहित्रोः द्रुहितॄणां
दुहितॄणां सम्यक् दुहितॄणां सम्यक् धन्यवादः धन्यवादः. वीना बेन् भगिनी वारि
वारि अहं न जानामि.
अत्र पश्यतु भगिनि अहं दर्शयामि
वारिणः वारिणोः वारीणां
वारीणाम् अस्तु. अन्य अन्य किमपि सागरी भगिनि जानु उकारान्तपदम्
जानुनः जानुनोः जानूनां
जानूनाम् अस्तु. सन्ध्या भगिनि भवत् शब्द अत्र नास्ति भवत् शब्दः
भवतः
भवतां भवतः भवतोः भवताम् अस्तु. अत्र गीतासोपानं प्रति गच्छामः इदानीम् आं भगिनि
एकः प्रश्नः अस्ति यदि अहं न जानाति एकशब्दं भवती
पुल्लिङ्गं वा स्त्रीलिङ्गं वा
नपुंसकलिङ्गं वा
सो तत्र कोशं दृष्ट्वा उदाहरणार्थं रेणु इति अस्ति सो अत्र डिक्शनरी अस्ति खलु कोशः तत्र तत्र गत्वा रेणु इति शब्दः पुल्लिङ्गं वा स्त्रीलिङ्गं वा इति पश्यतु. सो अत्र रेणु इति नास्ति अस्तु रेणु इति पुल्लिङ्गशब्दः परन्तु स्त्रीलिङ्गे अपि अस्ति कुत्र रेणु स्त्रीलिङ्गे स्त्रीलिङ्ग अपि अस्ति अत्र नास्ति अहं स्त्रीलिङ्गम् इति लिखितवती प्रायः पुल्लिङ्गं वा अस्तु प्रायः पुल्लिङ्ग सो एतादृशं कर्तुं शक्नुमः अहं चिन्तितवती स्त्रीलिङ्ग इति. अन्यकोशं पश्यामि एकनिमिषम् पुल्लिङ्ग पुल्लिङ्ग एव भगिनि सो अत्र स्त्रीलिङ्ग अपि अस्ति रेणु पुल्लिङ्ग अपि अस्ति स्त्रीलिङ्ग अपि अस्ति
पुल्लिङ्ग रेणु रेणुका रेणु
रेणुका अपि अस्ति रेणुका इत्युक्ते वेरि वेरि स्माल् पार्टिकल् इति रेणुका रेणुका सो अत्र अस्ति खलु रेणुका
सिङ्गल्
पार्टिकल् रेणुका सो परन्तु मेजारिटि दे आर् सेयिङ्ग् पुल्लिङ्ग भगिनि सो ऐ हाव् टु चेञ्ज् इट् टु पुल्लिङ्ग अत्र सो इन् दिस् कोष्टकं थेङ्क् यु सन्ध्या भगिनि बिकास् आफ् यु ऐ हाव् टु चेञ्ज् इट् टु पुल्लिङ्ग सो इट् इट् इस् नाट् स्त्रीलिङ्ग आं भगिनि देर् इस् अ लिङ्क् यु केन् जस्ट् गो देर् लिङ्क् अस्ति खलु तत् अस्तु
भगिनी द्वितीय शब्दकोशः लिङ्क् किं समुच्चयशब्दकोशः लिङ्क्
दट् इस् आन्ध्र या आन्ध्रभारती आन्ध्रभारती अहं प्रेषयामि तत्र
धन्यवादः भगिनि
अस्तु सो रेणु रेणुः इति पुल्लिङ्गपदं सो अत्र स्थापयामि अस्तु अस्तु धन्यवादः सो तादृशं दर्शयित्वा वयं जानीमः पुल्लिङ्गं वा स्त्रीलिङ्गं वा इति धन्यवादः भगिनि भवती अस्तु वयं अग्रे गच्छामः अग्रिम अस्ति गीतायाः दशमाध्यायस्य एकविंशति श्लोकतः चत्वारिंशत् संख्यां पठतु इति सो अत्र अहं स्थापितवती किम् अस्ति अत्र षष्टिविभक्तिरूपाणां परिशीलयतु इति सो अत्र आदित्यानाम् इति ज्योतिषां नाम शां मरुतां तामपि अस्ति खलु भवत् शब्दः इव मरुत् शब्दः भवतः भवतोः भवताम् इति अस्ति खलु मरुतां नक्षत्राणां भूतानाम् इन्द्रियाणां रुद्राणां नां शां सां ताम् एतादृशं भवति भवन्तः परिशीलयन्तु तत्र अस्तु वा आं वा इदानीं कुर्मः वा इदानीं वा अस्तु अस्तु सो अत्र किम् अस्ति त्रयोविंशतितमे रुद्राणां
रक्षसां
शिखरिणां शिखरि अत्र पश्यतु शिखरी नास्ति शिखरि न सेनानीनां
सरसां
सरसां
महर्षीणां
अस्तु
दैत्यानां
वृक्षाणां देवर्षीणां
गन्धर्वाणां उच्चैश्रवस्वानां
उच्चैश्रवसमश्वानाम्
अश्वानां
गजेन्द्राणां सम्यक्
नागानां
पक्षिणाम् अत्रापि ईकारान्त पक्षिणां सो अत्र पक्षिन् हलन्तशब्दे भिन्नरूपं भवति वयम् इदानीम् अजन्तशब्द अजन्त इत्युक्ते मूलरूपस्य अन्तिमवर्णः स्वरः भवति तादृशमस्ति चेत् दीर्घं भवति परन्तु हलन्तरूपे ह्रस्वं भवति अस्तु भवतां भवताम् अस्मि
सर्वाणां
विद्यानां
प्रवदतां
प्रवदताम्
दातृशब्दः
दातृशब्दः
भविष्यतां ऋतूनां
पाण्डवानां
सर्वभूतानां
दिव्यानां
चराचरं
दिव्यानां
दिव्यानां विभूतीनां
अस्तु अभवत् अभवत् धन्यवादः अस्तु अग्रे गच्छामः सो इदानीं वयम् आरम्भं कुर्मः अभ्यासः गीतासोपानात् समयः बहु अतीतः परन्तु अस्तु प्रथमतः श्रीनिवासमहोदय आरम्भं करोतु कृपया सो अत्र आवरणे विद्यमानस्य शब्दस्य षष्टिविभक्तिरूपेण रिक्तस्थानानि पूरयत इति अस्ति मयूराः अत्र बहुवचनम् अस्ति बहुवचनरूपम् श्रीनिवासमहोदय अस्ति वा नास्ति इति मन्ये अस्तु सविता भगिनी
मयूराः मेघागर्जनम् इच्छन्ति मेघा अकारान्तस्त्रीलिङ्ग भगिनि
आम् सर्वत्र नाम 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 एव भवति बहुवचनरूपं
मयूराः मेघानां गर्जनम् इच्छन्ति
सम्यक् मयूराः मेघानां गर्जनम् इच्छन्ति अस्तु लता भगिनी अनन्तरम् अम्ब लता भगिनी
पण्डितः नाटकानां रचनां करोति
सम्यक् नाटकानां रचनम् ओके अम्ब अनन्तरं जयश्री भगिनी अम्ब अस्ति वा
बृहस्पतिः देवानां गुरुः अस्ति
उत्तमं देवानां गुरुः अस्ति जयश्री भगिनी
सज्जनाः सूक्तीनां स्मरणं कुर्वन्ति
सम्यक् सूक्तीनां स्मरणं कुर्वन्ति अस्तु अग्रे जयश्री मङ्गल् भगिनि
गोपालकः धेनवानां पालनं करोति
सो अत्र धेनवः इति अस्ति चेत् मूलरूपं किं
धेनूनां
धेनूनां पालनं करोति सम्यक् सम्यक् भगिनि विष्णुमहोदय
पिता वस्तूनां गणनां करोति
पिता वस्तूनां गणनं करोति सम्यक् चम्पा भगिनी
वयं कार्यकर्तानां वचनं शृणुमः
अत्र
कार्यकर्तारः
मुद्रणदोषः अस्ति कार्यकर्तारः इति अस्ति मुद्रणदोषः नास्ति. कार्यकर्तारः इति अस्ति, अतः मूलरूपं किं भवति? कर्तारौ कर्तारः, खलु? कर्तृ, सम्यक्, कर्तृ. ऋकारान्तपदं वयं
कार्यकर्तानां.
अत्र ऋकारान्तपदं कथं भवति? मातुः अथवा पितुः अस्ति चेत् ऋकारान्त, पितुः, पित्रोः, पितॄणां, कर्तॄणां, कर्तॄणां वचनं शृणुमः. सम्यक्,
वचनं शृणुमः.
कार्यकर्तॄणां वचनं शृणुमः. अस्तु, अग्रे एकनिमिषम्. ऊर्मिला भगिनी.
अहं गुरूणां सेवां करोमि.
सम्यक्, गुरूणां सेवां करोमि. त्रीणि रूपाणि कानि? गुरुः,
गुरोः, गुर्वोः, गुरूणां.
सम्यक्, सम्यक् सम्यक् भगिनि. गुरोः, गुर्वोः, गुरूणां. पूर्वमपि तथा कुर्मः वा? मेघाः अस्ति चेत् कथं भवति? मेघः,
मेघानां.
नाटकानि?
नाटकस्य, नाटकयोः, नाटकानां.
देवाः अपि समानमेव, देवः. सूक्तिः, इकारान्तपदम्. सम्यक्, सूक्त्याः, सूक्त्योः, सूक्तीनां. धेनु, धेनुशब्दः. धेनोः अथवा धेन्वाः, धेन्वोः, धेनूनां. सम्यक्, वस्तु, वस्तुशब्दः.
वस्तुनः,
वस्तुनः. सम्यक्, नपुंसकलिङ्गपदं. वस्तुनः, वस्तुनोः, वस्तूनां. सम्यक्, सम्यक्. अस्तु, वाद्यानि. उमाकृष्णन् भगिनी, वाद्यानि.
सभायां वादीनां.
वाद्यानि इति नपुंसकलिङ्गं.
वादीन्
पुस्तकानि, पुस्तकस्य, पुस्तकयोः,
पुस्तकानां. सो वादीनां,
वाद्यानां, वाद्यानि,
वाद्यानां ध्वनिः अधिकः अस्ति.
अधिकः अस्ति. त्रीणि रूपाणि कथं भवति?
वादीः, वादिनोः, वादिनां.
पुस्तकं, पुस्तकमस्ति चेत् कथं भवति?
पुस्तके.
सो अत्र नाम किम् इति कथं पृच्छामः?
वाद्यः.
पुस्तकस्य नाम, पुस्तकस्य नाम गीतासोपानं. तादृशं वाद्यम् इति अस्ति.
वाद्यस्य, वाद्ययोः, वादीनां,
वाद्यानां. सो
वाद्यानां.
पुनः वदतु, वाद्यस्य,
वाद्यस्य, वाद्ययोः, वाद्यानां.
सो अत्र
वाद्यानां.
सो वाद्य इति मूलरूपं, तत् स्वीकृत्य वाद्य, वाद्ययोः, वाद्यानां. एवम् एवं भवति.
वाद्यानां,
वाद्यस्य,
वाद्ययोः, वाद्यानां.
एवं
वाद्यानां,
वाद्यस्य, वाद्य, धन्यवादः. वाद्यानाम्. अस्तु, इलाबेन् भगिनी.
माता अपत्यानां पालनं करोति.
उत्तमं. त्रीणि रूपाणि कानि?
अपत्याः, अपत्योः, अपत्यानां.
अत्र अपि तदा तादृशमेव. अपत्य इति रूपम्. सो अत्र अपत्य मूलरूपं लिखित्वा स्य योः आनाम् इति योजनीयम् वदतु त्रीणि रूपाणि वदतु कृपया
अपत्य अपत्यमूलरूप मूलशब्दः अपत्यस्य अपत्योः
अपत्ययोः
अपत्ययोः अपत्यानाम्
अपत्यानाम् एवं भवति सम्यक् अस्तु
धन्यवादः
धन्यवादः भगिनि सो अत्र मेचिङ्ग् करणीयम् उचितं पदं तत्र लेखनीयं कोष्टकस्थैः उचितपदैः रिक्तस्थानानि पूरयत अस्तु विजय महोदय वयं प्रतिदिनं
महापुरुषाणां जीवनचरित्रं पठामः
उत्तमम् उत्तमम् एवम् एवम् अभवत् महापुरुषाणां जीवचरित्रं पठामः सम्यक् विनाबेन् भगिनि
तेषां गुरूणां कवितः रमणीयः सति न कवीनां
कविताः रमणीयाः सो अत्र त्रीणि रूपाणि कानि भगिनि कवीनां
कविष्य कवयोः
कवीनाम् अत्र अकारान्तपदमस्ति चेत् स्य भवति सो अत्र कवि इति इकारान्तपदं खलु सो एः भवति कवेः
कवेः कवयोः कवीनां
कव्योः इति भवति कवेः कव्योः कवीनां
कवेः कव्योः कवीनां
कवीनाम् अस्तु ततः पूर्वं विजय महोदय महापुरुषाणां त्रीणि रूपाणि
महापुरुषस्य महापुरुषयोः महापुरुषाणां
सम्यक् महापुरुषाणां सम्यक् सो अहं पुनः पुनः पृच्छामि किमर्थम् इत्युक्ते रूपाणि कण्ठस्थीकरणं बहु बहु कष्टकरम् अतः अभ्यासेन एव मनसि स्थापयितुं शक्नुमः वयं सो अतः एव अहं पुनः पुनः पृच्छामि अस्तु उषा भगिनी विवेकानन्दस्य उषा भगिनी नास्ति इति चिन्तयामि शोभना भगिनी अस्तु अस्तु
विवेकानन्दस्य पठनेन स्फूर्तिः लभ्यते विवेकानन्दस्य वचनानां
वचनानां सम्यक् वचनानां त्रीणि रूपाणि कानि सम्यक् वचनस्य वचनयोः वचनानां सम्यक् अस्तु सा शोभना भगिनि
तयोः मित्रयोः मैत्री जगत् प्रसिद्धा
उत्तमं मित्रयोः
मित्रयोः मित्रस्य
सम्यक्
मित्रस्य मित्रयोः मित्राणां
ऋकारान्त अस्ति चेत् मित्रोः भवति खलु मित्रोः ऋकारान्तः नास्ति मित्रयोः मित्राणामेव अस्तु सागरि भगिनि
अनुसरणेन जीवने अनुशासनं भवति अनुसरणेन जीवने अनुशासनं भवन्ति
सम्यक् सम्यक्
त्रीणि रूपाणि नियमस्य नियमयोः नियमानां
सम्यक् नियमस्य नियमयोः नियमानाम् अस्तु षष्ठं वाक्यं सन्ध्या भगिनि
मध्ये सहकारभावः आवश्यकः कार्यकर्तॄणां मध्ये सहकारभावः आवश्यकः
सम्यक् त्रीणि रूपाणि
मूलरूपं कार्यकर्ता खलु भगिनि
कार्यकर्तृ
कर्तृ कार्यकर्
कार्यकर्तुः प्रथम ऐ मीन् एकवचनं कार्यकर्तुः कार्यकर्तुः अहं वदामि कार्यकर्तुः कार्यकर्त्रोः कार्यकर्तॄणा कर्तुः कर्त्रोः कर्तॄणा एवं भवति मातुः मात्रोः मातॄणां पितुः पित्रोः पितॄणां धातुः धात्रोः धातॄणां पुल्लिङ्ग स्त्रीलिङ्ग नपुंसकलिङ्ग समानरूपम् कर्तुः कर्त्रोः कर्तॄणां सम्यक् पुल्लिङ्गमपि पितुः एतत् पुल्लिङ्गमेव कर्तुः कर्त्रोः कर्तॄणां पुल्लिङ्गमेव
एकवचने कर्तृ या कर्तु
कर्तुः सर्वत्र तुः मातुः पितुः
कर्तु
कर्तृ न कर्तुः
पितुः
सो अत्र
नोरकार
नोरकार सम्यक् सो अत्र पितृ एवम् अस्ति परन्तु कर्तृ अत्र एतत् अस्ति खलु कर्तृ अतः एव कर्तृ सो अत्र मूलरूपम् अस्ति अत्र कर्तॄणां रेफा अस्ति अत्र उत्तमप्रश्नः महोदय अस्तु श्रीनिवासमहोदय आमाम् आम् आम् परन्तु रेफा अस्ति खलु तत्र तत् तत् आवश्यकम् एवम् एवं भवति कर्तुः क्षम्यताम् अहम् अत्र अत्र लिखामि
कर्त्रोः
कर्त्रोः एव एवं भवति कर्त्रोः कर्तॄणा
कार्यकर्तुः कार्यकर्तृः कार्यकर्तॄणा
अस्तु सम्यक् श्रीनिवासमहोदय सप्तम ओ सः गतवान् अस्तु सविता भगिनी
आं भगिनि मतीनाम् ऐक्यं न सुलभम् मूलरूपं मति मतेः मत्येः मत्योः मतीनाम्
अस्तु मती वा मतिः वा मतिः
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 मतेः मत्योः मतीनाम्
मत्येः अथवा मत्याः अपि भवति स्त्रीलिङ्ग इति उक्त्वा मत्योः मतीनाम् अस्तु सो मतेः इति प्रथमम् अस्तु अष्टमम् अध्यत्वे सविता भगिनी
अध्यत्वे नदीनां जलं कलुषितं भवति
नदीनां जलं कलुषितं भवति. नदीनां त्रीणि रूपाणि,
नदी मूलरूपं, नद्याः नद्योः नदीनां.
सम्यक्, नद्याः नद्योः नदीनां. सम्यक्.
अद्यत्वे अर्थं किम्?
अद्यत्वे मीन्स् इदानीन्तनकाले.
इदानीन्तन,
अस्तु.
भगिनि, कलुषितं,
कलुषितम् इति
पोल्यूटेड्
दूषितम्. अव्ययपदमेव अद्यत्वे. अस्तु, लता भगिनी.
अश्वपालकः अश्वानां पालनं करोति.
अश्वानां पालनं,
अश्वस्य अश्वयोः अश्वानां.
सम्यक्, अश्वस्य अश्वयोः अश्वानां. सम्यक्. दशमं,
दशमं डाश् आज्ञा.
क्षम्यतां भगिनि, अम्ब, अम्ब अस्ति वा? अम्ब.
गुरूणाम् आज्ञा पालनीया.
गुरूणाम् आज्ञा पालनीया. त्रीणि रूपाणि गुरु शब्द.
गुरु गुरोः,
गुरोः
गुर्वोः गुरुणा.
सम्यक्, गुरोः गुर्वोः गुरुणा, गुरुणा. अस्तु, अग्रे गच्छामः. अत्र बान्धवानां विषये अस्ति. बन्धुवाचकानि, बन्धुवाचकानि पदानि तत्र अस्ति. महाभारततः रामायणतः सर्वाणि भवन्ति. अस्तु, प्रथमं जयश्री भगिनी. सो अत्र उदाहरणं पठतु, अनन्तरं प्रथमवाक्यं पठतु.
पितुः माता, पितामही, नवः कौसल्या. कौसल्यस्य, सोरि, नवस्य पितामही कौसल्या.
लवस्य पितामही कौसल्या. सम्यक्. सो अत्र कौसल्या इति वदामः चेत् कौसल्यायाः इति भवति खलु. कौसल्यायाः लवः इति कथं वदामः? कौसल्यायाः पितुः माता, पितुः माता इति अस्ति. अतः कौसल्या दृष्ट्या कथं वदामः? कौसल्यायाः पुत्रस्य पुत्रः लवः खलु.
पौत्रः,
पौत्रः, पौत्रः. कौसल्यायाः पौत्रः लवः एवं भवति. परन्तु तादृशं मास्तु इदानीम् इति अहं अस्तु, अग्रे पश्यामः. मङ्गल भगिनी.
कुशस्य माता मह जनकः.
सम्यक्, कुशस्य मातामहः जनकः. मातामहः इत्युक्ते मातुः पिता. वयं मातुः पिता, मातुः पिता मातामहः. पितुः माता पिता मही. माता अस्ति चेत् मही भवति, पिता अस्ति चेत् महः भवति. मातुः माता मातामहः, पितुः माता पितामहः. सो अत्र
धन्यवादः,
धन्यवादः. सो अत्र समयः अपि अभवत्. अग्रिमवर्गे इतः आरम्भं कुर्मः, प्रथमतः आरम्भं कुर्मः. अष्टमाध्याय अभ्यासतः आरम्भं कुर्मः. प्रश्नः अस्ति वा? अद्य किं कृतवन्तः? नास्ति, नास्ति इति मन्ये. अस्तु, अस्तु, तर्हि शान्तिमन्त्रम् उक्त्वा समापयामः. का वक्तुमिच्छति? शान्तिमन्त्रं वदति वा? वदतु. ॐ सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामया, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्. शान्ति शान्ति शान्ति. हरिः ओम् श्री गुरुभ्यो नमः.
हरिः ओम्.
धन्यवादः.
धन्यवादः.
धन्यवादः. नमस्कारं. धन्यवादः.